हरे कृष्णा।
वी विल लर्न टेक्स्ट 22 फ्रॉम चैप्टर 2 कंटेंट्स ऑफ गीता समराइज्ड। प्लीज रिपीट आफ्टर मी 3 टाइम्स। वासांसि
वासांसि वासांसि वासांसि
जीर्णानि
जीर्णानि जीर्णानि जीर्णानि
यता
यता यता यता
विहाय
विहाय विहाय विहाय
नवानि
नवानि नवानि नवानि
गृह्णाति
गृह्णाति गृह्णाति गृह्णाति
नरोपराणि
नरोपराणि नरोपराणि नरोपराणि
तथा शरीराणि
तथा शरीराणि तथा शरीराणि तथा शरीराणि
विहाय जीर्णानि
विहाय जीर्णानि विहाय जीर्णानि विहाय जीर्णानि
अन्यानि संयाति
अन्यानि संयाति अन्यानि संयाति
नवानि देहि
नवानि देहि नवानि देहि नवानि देहि
एनी डाउट इन प्रोनाउंसिएशन
यस
विच वन
थर्ड
थर्ड लाइन
यस
तथा शरीराणि
तथा शरीराणि तथा शरीराणि
विहाय जीर्णानि
विहाय जीर्णानि विहाय जीर्णानि
ओके नाउ रिसाइट आफ्टर मी 20 टाइम्स। वासांसि जीर्णानि यथा विहाय
वासांसि जीर्णानि यथा विहाय वासांसि जीर्णानि यथा विहाय वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोपराणि
नवानि गृह्णाति नरोपराणि नवानि गृह्णाति नरोपराणि नवानि गृह्णाति नरोपराणि
तथा शरीराणि विहाय जीर्णानि
तथा शरीराणि विहाय जीर्णानि तथा शरीराणि विहाय जीर्णानि तथा शरीराणि विहाय जीर्णानि
अन्यानि संयाति नवानि देहि
अन्यानि संयाति नवानि देहि अन्यानि संयाति नवानि देहि अन्यानि संयाति नवानि देहि
आल रिसाइट एंटायर वर्स। वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि तथा शरीराणि विहाय जीर्णानि अन्यानि संयाति नवानि देहि
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि तथा शरीराणि विहाय जीर्णानि अन्याति संयाति नवानि देहि।
The translation is, as a person puts on new garments, giving up old ones, the soul similarly accepts new material bodies, giving up the old and useless ones.